अथैकादशः सर्गः। अवधूय च ताम् बुद्धिम् बभूवावस्थितस्तदा जगाम चापरान् चिन्ताम् सीताम् प्रति महाकपिः। न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी, न भोक्तुम् नाप्यलङ्कर्तुम् न पानमुपसेवितुम्, नान्यम् नरमुपस्थातुम् सुराणामपि चेश्वरम्। न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि, अन्येयमिति निश्चित्य भूयस्तत्र चचारसः। प्राणभूमौ हरिश्रेष्ठः सीता सन्दर्शनोत्सुकः, क्रीडितेनापराः क्लान्ता गीतेन च तथा पराः, नृत्येन चापराः क्लान्ताः पाणविप्रहतास्तथा। मुरजेषु मृदङ्गेषु चेलिकासु च संस्थिताः, ततास्तरणमुख्येषु संविष्टाश्चापरा स्त्रियः। अङ्गनानाम् सहस्रेण भूषितेन विभूषणैः, रूपसंलापशीलेन युक्तगीतार्थभाषिणा, देशकालाभियुक्तेन युक्तवाक्याभिधायिना, रताधिकेन संयुक्ताम् ददर्श हरियूथपः। अन्यत्रापि वरस्त्रीणाम् रूपसंलापशायिनाम् सहस्रम् युवतीनाम् तु प्रसुप्तम् सददर्शः, देशकालाभियुक्तम् तु युक्तवाक्याभिधायि तत्। रताविरतसंसुप्तम् ददर्श हरियूथपः। तासाम् मध्ये महाबाहुः शुशुभे राक्षसेश्वरः, गोष्ठे महति मुख्यानाम् गवाम् मध्ये यथा वृषः। सराक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम्, करेणुभिर्यथारण्ये परिकीर्णो महाद्विपः। सर्वकामैरुपेताम् च पानभूमिम् महात्मनः, ददर्शकपिशार्दूलस्तस्य रक्षः पतेर्गृहे। मृगाणाम् महिषाणाम् च वराहाणाम् च भागशः, तत्रन्यस्तानि मांसानि पानभूमौ ददर्श सः। रौक्मेषु च विशालेषु भाजनेष्वप्यभक्षितान्, ददर्शकपिशार्दूलो मयूरान् कुक्कुटांस्तथा। वराहवाध्रीणसकान् दधिसौवर्चलायुतान्, शल्यान् मृगमयूरांश्च हनुमानन्ववैक्षत, कृकलान् द्विविधांश्छागाञ्छशकानर्धभक्षितान्, महिषानेकशल्यांश्च मेषांश्च कृतनिष्ठितान्, लेह्यानुच्चावचान् पेयान् भोज्यान्युच्चावचानि च, तथाम् ललवणोत्तंसैर्विविधैरागखाण्डवैः, महानूपुरकेयूरैरपबिद्धैर्महाधनैः, पानभाजनविक्षिप्तैः फलैश्च विविधैरपि। कृतपुष्पोपहाराभूरधिकाम् पुष्यति श्रियम्, तत्र तत्र च विन्यस्तैः सुश्लिष्टशयनासनैः। पानभूमिर्विना वह्निम् प्रदीप्तेवोपलक्ष्यते, बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः, मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक्। दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि, शर्करासवमाध्वीकाः पुष्पासवफलासवाः, वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक् पृथक्। सन्तता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः, हिरण्मयैश्च कलशैर्भाजनैस्फाटिकैरपि, जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता। राजतेषु च कुम्भेषु जाम्बूनदमयेषु च पानश्रेष्ठाम् तथा भूमिम् कपिस्तत्र ददर्श सः। सोपश्यच्छातकुम्भानि शीधोर्मणिमयानि च, तानि तानि च पूर्णानि भाजनानि महाकपिः। क्वचिदर्धावशेषाणि क्वचित् पीतान्यशेषतः, क्वचिन्नैव प्रपीतानि पानानि सददर्शः। क्वचिद्भक्ष्यांश्च विविधान् क्वचित् पानानि भागशः, क्वचिदर्धावशेषाणि पश्यन् वैविचचारः। शयनान्यत्र नारीणां शून्यानि बहुधा पुनः परस्परं समाश्लिष्य काश्चित् सुप्तावराङ्गनाः काचिच्च वस्त्रमन्यस्य अपहृत्योपगुह्य च उपगम्याबला सुप्ता निद्राबलपराजिता तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम् नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम् चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च विविधस्य च माल्यस्य पुष्पस्य विविधस्य च बहुधा मारुतस्तस्य गन्धं विविधमुद्वहन् स्नानानां चन्दनानां च धूपानां चैव मूर्च्छितः प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा श्यामावदातास्तत्रान्याः काश्चित् कृष्णावराङ्गनाः काश्चित् काञ्चनवर्णाङ्ग्यः प्रमदाराक्षसालये तासां निद्रावशत्वाच्च मदनेन विमूर्च्छितम् पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि एवं सर्वमशेषेण रावणान्तः पुरं कपिः ददर्श स महातेजा न ददर्श च जानकी निरीक्षमाणश्च ततस्तास्त्रियः स महाकपिः जगाम महतीं शङ्कां धर्मसाध्वस शङ्कितः परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् इदं खलु ममात्यर्थं धर्मलोपं करिष्यति न हि मे परदाराणां दृष्टिर्विषयवर्तिनी अयं चात्र मया दृष्टः परदारपरिग्रहः तस्य प्रादुरभूच्चिन्ता पुनरन्या मनस्विनः निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः न तु मे मनसा किञ्चिद्वैकृत्यमुपपद्यते मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने शुभाशुभास्वस्थासु तच्च मे सुव्यवस्थितम् नान्यत्र हि मया शक्या वैदेही परिमार्गितुम् स्त्रियो हि स्त्रीषु दृश्यन्ते सदा सम्परिमार्गणे यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्गते न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम् तदिदं मार्गितं तावच्छुद्धेन मनसा मया रावणान्तःपुरं सर्वं दृश्यते न च जानकी देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान् अवेक्षमाणो हनुमान्नैव पश्यत जानकीं तामपश्यन् कपिस्तत्र पश्यंश्चान्यावरस्त्रियः अपक्रम्य तदा वीरः प्रस्थातुमुपचक्रमे स भूयः सर्वतः श्रीमान्मारुतिर्यत्नमाश्रितः आपानभूमिमुत्सृज्यतां विचेतुं प्रचक्रमे इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकादशः सर्गः।